सकृदेव प्रपन्नाय तवास्मीति च याचते अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम। मित्रभावेन संप्राप्तं न त्यजेयं कथंचन, दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्। पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम कार्यं करुणमार्येण न कश्चिन्नापराध्यति। स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः, धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम्। ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम्, अहं स्मरामि मद्भक्तं नयामि परमां गतिम्। सत्यं ब्रवीमि मनुजा स्वयमूर्ध्वबाहुः, यो मां मुकुन्द नरसिंह जनार्दनेति, जीवं जपत्यनुदिनं मरणे ऋणीव। पाषाणकाष्ठसदृशाय ददामि मुक्तिम्। मामेवानुस्मरस्वत्वं त्वामहं संस्मरामि च, उपायमपवर्गस्य रहस्यमपि मे शृणु। सर्वकर्माणि संत्यज्य सर्वकर्मफलानि च, शरणं मां प्रपद्यस्व सर्वबन्धविमुक्तये। सुदर्शन महाज्वाल कोटिसूर्यसमप्रभा, अज्ञानान्धस्य मे देवा विष्णोर्मार्गं प्रदर्शय। पाञ्चजन्या निजध्वाना ध्वस्तपातकसञ्चय, पाहि मां पापिनं घोर संसारार्णवपातिनम्। श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवं यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम्। नमः श्रीशैलनाथाय कुन्तीनगरजन्मने प्रसादलब्धपरमप्राप्य कैङ्कर्यशालिने। लोकाचार्याय गुरवे कृष्णपादस्य सूनवे, संसारभोगि सन्दष्ट जीव जीवातवे नमः। श्रीकृष्णपादपादाब्जे नमामि शिरसा सदा, यत्प्रसादप्रभावेन सर्वसिद्धिरभून्मम। वेदान्तवेद्यामृतवारिरासेः वेदार्धसारामृतपूरमग्र्यम्, आदाय वर्षं तमहं प्रपद्ये कारुण्यपूर्णं कलिवैरिदासम्। नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे, यस्य वागमृतासारपूरितं भुवनत्रयम्। श्रीपराशरभट्टार्यः श्रीरङ्गेश पुरोहितः श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे रामानुजपदच्छाया गोविन्दाह्वानपायिनी तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणायमेने अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये कमलापतिकल्याणगुणामृतनिषेवया पूर्णकामाय सततं पूर्णाय महते नमः यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः वस्तुतामुपयातोऽहम् यामुनेयं नमामितम् अयत्नतो यामुनमात्मदासम् अलर्कपत्रार्पणनिष्क्रियेण यः क्रीतवानास्थितयौवराज्यम् नमामितं राममेयसत्त्वम् नमः पङ्कजनेत्राय नाथश्रीपादपङ्कजे न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते नमो अचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये नाथाय मुनये गाध भगवद्भक्तिसिन्धवे मातापिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् आद्यस्य नः कुलपतेर्वकुलाभिरामम् श्रीमत्तदङ्घ्रियुगळम् प्रणमामि मूर्ध्ना श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुम् विन्यस्य विश्वचिदचिन्नयनाधिकारम् यो निर्वहत्यनिशमङ्गुलिमुद्रयैव सेनान्यमन्यविमुखास्तमिहाश्रयामः नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ईशेषितव्यवैषम्या निम्नोन्नतमिदं जगत् श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये चिन्तामणिमिवोद्भान्तम् उत्सङ्गेनन्तभोगिनः ॐ अस्मद्गुरुभ्यो नमः।